एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् नवनियुक्तेन गृहमन्त्रिणा सुदन गुरूङ इत्यनेन, विज्ञान प्रविधि नवप्रवर्तन मन्त्रिणा महावीर पुन इत्यनेन च पदगोपनीयतयो शपथ गृहीतोऽस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्य आयोजिते समारोहे राष्ट्रपतिः पौडेलः नवनियुक्तौ मन्त्रिणौ शपथम् अग्राहयत्। ह्य एव राष्ट्रपतिः पौडेलः प्रधानमन्त्रिणा बालेन्द्र शाहस्य परामर्शेन गृहमन्त्रीपदे गुरूङ इत्यमुम्, विज्ञान प्रविधि नवप्रवर्तन मन्त्रीपदे च पुन इत्यमुम् च नियुक्तवान् आसीत्। समारोहे उपराष्ट्रपति रामसाहेब प्रसाद यादव, प्रधानमन्त्री शाह, प्रधान न्यायाधीश डाक्टर मनोज कुमार शर्मा, सभामुख डोलो प्रसाद अरियाल, राष्ट्रिय सभाया अध्यक्ष नारायण प्रसाद दाहाल, मन्त्रिण, विभिन्न राजनैतिक दलानां प्रमुखा, प्रतिनिधय, सांसदा, सांविधानिक निकायानां प्रमुखाश्च उपस्थिता आसन्। अत्रान्तरे नवनियुक्तेन गृहमन्त्रिणा सुदन गुरूङ इत्यनेन ह्य एव गृहमन्त्रालयम् प्राप्य पदभार गृहीतोऽस्ति। पदभारम् गृह्णन् मन्त्री गुरूङ अष्टापञ्चाशदुत्तर द्विसहस्रतमे वैक्रमाब्दे सम्भूतायाः नारायणहिटी राजप्रासाद हत्याकाण्डस्य अनुसन्धान प्रतिवेदनम् अधीत्य अतिरिक्तानुसन्धानस्य प्रक्रियाम् अग्रे वर्धयितुम् निर्णीय समग्रतः निर्णय चतुष्टयम् विहितवान् वर्तते। एवमेव नवनियुक्तेन विज्ञान प्रविधि नव प्रवर्तन मन्त्रिणा महावीर पुन इत्यनेन च ह्य एव मन्त्रालयम् प्राप्य पदभारः गृहीतोऽस्ति। तदवसरे मन्त्री पुन विज्ञान प्रविधेः विकासम् द्रुतगत्या अग्रे वर्धयितुम् प्रतिबद्धताम् अभिव्यनक्। सर्वकारेण एतत् विक्रमवर्षीयायाः सर्वकारीय सेवा सम्बद्धायाः नियमावल्याः षोडशम् संशोधनम् स्वीकृतम् वर्तते। ह्य उपविष्टस्य मन्त्रिपरिषद उपवेशस्य निर्णयान् सार्वजनिक कुर्वन् सर्वकारस्य प्रवक्ता शिक्षा खेल कूर्द मन्त्री च सस्मित पोखरेल सर्वकारीय सेवा सम्बद्धा संशोधन नियमावली स्वीकृतास्तीति अज्ञापयत्। मन्त्रिपरिषद ह्यस्तनेन उपवेशेन पूर्वगृहमन्त्रिण सुदन गुरूङ इत्यस्य विषय अनुसन्धानाय संघटितया समित्या प्रस्तुतम् प्रतिवेदनम् ग्रहीतुम् निर्णीतम् वर्तते। सर्वकारेण अधस्तन अरूण जलविद्युदायोजनायाः, अधस्तन न्यादी खोला जलविद्युदायोजनायाः, घुन्सा खोला जलविद्युदायोजनायाः, तादी खोला जलविद्युदायोजनायाश्च कृते राष्ट्रिय वनक्षेत्रस्य प्रयोगम् कर्तुम् स्वीकृति प्रदत्तास्तीति मन्त्री पोखरेलः असूचयत्। उपवेशेन विशाल कुमार भण्डारिणः अध्यक्षतायाम् नेपाल रेडक्रस सोसाइटी इति संस्थायाः नवसदस्यात्मिकाम् समितिम् संघटयितुम् निर्णीतमस्तीति च मन्त्री पोखरेलः अज्ञापयत्। संचारकर्मिणाम् जिज्ञासायाम् मन्त्री पोखरेलः प्रधानमन्त्री बालेन्द्र शाह आवश्यकतायाम् सत्याम् सांसदानाम् प्रश्नानाम् उत्तरम् दातुम् संसदि उपस्थितो भविष्यतीति अभासत। एवमेव मन्त्री पोखरेलः त्रिभुवन विश्वविद्यालये वित्तस्य अभावम् निर्वार्य वित्तस्य विनियोजनम् विहितमस्तीति च चयन, शिक्षाक्षेत्रे पर्याप्तरूपेण वित्तम् प्रदीयमानमस्तीति च समस्पष्टयत्। प्रतिपक्षीदलानाम् सांसदानाम् नैरन्तर्यस्य अवरोधस्य कारणेन ह्योऽपि प्रतिनिधिसभायाः उपवेशः उपवेष्टुम् न शक्तः। प्रतिनिधिसभाया ह्यस्तनोपवेशस्य प्रारम्भणेन सहैव प्रतिपक्षिणाम् नेपाली कांग्रेस, नेकपा एमाले, नेपाली कम्युनिष्ट, समसंस्कृति, राष्ट्रिय प्रजातन्त्र दलानाम् सांसदैः उत्थाय विरोध ज्ञापनस्य पश्चात् सभामुखेन डोलो प्रसाद अरियालेन सत्तापक्षस्य प्रतिपक्षी दलैः सह संवादस्य प्रारम्भम् सम्भूतमस्तीत्यतः सदनस्य कार्यम् अग्रे वर्धयितुम् सांसदाः अनुरुद्धाः आसन्। उपवेशस्य प्रारम्भे नेकपा एमाले दलस्य सांसद क्षितिज थेवे, नेपाली कम्युनिष्ट दलस्य सांसद महेन्द्र बहादुर साई, नेपाली कांग्रेस दलस्य सांसद निष्कल राई, राप्रपा दलस्य सांसद खुशबू ओली, समसंस्कृति दलस्य अध्यक्ष हर्क राज राई च विरोधस्य विषयम् स्पष्टीकृतवन्तः। प्रतिनिधिसभायाः अपर उपवेश अद्य पूर्वाह्नस्य एकादशवादनाय आहूतो वर्तते। एवमेव राष्ट्रिय सभाया ह्यस्तनोपवेशोऽपि प्रतिपक्षीदलानाम् सांसदानाम् अवरोधस्य कारणेन स्व अष्टाविंशे बृहस्पतिवासरे सपादैकवादने उपवेक्ष्यमाणत्वेन स्थगितकृतो वर्तते। राष्ट्रियसभायाः अध्यक्षेण नारायणप्रसाद दाहालेन कार्यसूच्याः अनुसारेण उपवेशस्य अग्रेवर्धनाय सांसदाः अनुरुद्धाः सन्तोऽपि प्रतिपक्षदलानां सांसदैः विरोधस्य कार्याय नैरन्तर्यप्रदानस्य पश्चात् उपवेशः स्थगितकर्तव्यः आसीत्। उपवेशस्य प्रारभणात् पूर्वं सांसदैः राष्ट्रियाखण्डतायां संविधाने सुरक्षानिकायेषु प्रतिवेशिराष्ट्रैः विद्यमाने सम्बन्धे च प्रभावसर्जिका अभिव्यक्ति प्रधानमन्त्रिणां बालेन्द्रसायेन प्रदत्तास्तीति आरोप्य स्वस्य अभिव्यक्तिं प्रत्यावर्त्य सदने प्रधानमन्त्रिणा सम्बोधनं विधेयमिति याचना विहिता आसीत्। सूचना संचार मन्त्री डाक्टर विक्रम तिमल सिन्हा व्यवस्थापनम् अन्तर निकाय समन्वयम् च प्रभावकारिणौ विधातुम् बलम् ददाति। गतार्थिक वर्षस्य तृतीय त्रैमासिक समीक्षायां मन्त्रालयस्तरीय विकास समस्या समाधान समिते ह्यस्तनोपवेशे च संचार मन्त्री डाक्टर तिमल सिन्हा आगामिनि आर्थिक वर्षीय आयव्ययक विवरणम् प्रभावकारी रूपेण क्रियान्वय निर्धारितोद्देश्यानि पूरणीयानि सन्तीति अगदत्। स्वास्थ्य खाद्य स्वच्छता मन्त्री निशा मेहता आगामिनः आर्थिक वर्षात् स्वास्थ्य सुरक्षण कोषे नूतन संरचनाया सह नवीन शैल्या कार्यम् कर्तुम् सर्वकारः सक्रियोस्तीति सूचयति। प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्य प्रधानमन्त्रिणः बालेन्द्र शाहस्य सचिवालयस्य सहजीकरणेन आयोजिते नेपाल स्वास्थ्य सुरक्षण कोषे सुधार विषयक विमर्शने स्वास्थ्य मन्त्री मेहता स्वास्थ्य सुरक्षणस्य कोषस्य अधुनावधि चिकित्सालयेभ्य प्रदेयं वित्तम् आगामिनम् आषाढमासान्तं यावत् यथा कथञ्चिदपि प्रदातव्यम् एव अस्तीति बलं दत्तवती। पर्सा जनपद न्यायालयेन ह्य राष्ट्रिय स्वतन्त्र दलस्य सभापते रवि लामिछाने विदस्य विरूद्धे पञ्जीकारितं संघटितापराध सम्बद्धम् अभियोगपत्रं प्रत्यावर्तयितुम् आदिष्टमस्ति। पर्सा जनपद प्रशासन कार्यालयस्य न्यायाधीशस्य मोहन सुवेदिनः न्यायपीठेन ह्य लामिछाने विदस्य याचनायाः अनुसारेण उक्तम् अभियोगम् प्रत्यावर्तयितुम् निर्णीतम् वर्तते। अनेन निर्णयेन सहैव लामिछाने विदस्य विरूद्धे प्रस्तुतेषु अभियोगेषु सम्प्रति एक एव अभियोगः अवशिष्टो वर्तते। एतत्पूर्वं कास्की जनपद न्यायालयेन लामिछाने विदस्य विरूद्धे संघटितापराधस्य सम्पत्शुद्धिकरणस्य च विषये पञ्जीकारितम् अभियोगपत्रम् प्रत्यावर्तयितुम् आदिष्टम् आसीत्। सम्भावितं संकटं दृष्टिगतं विधाय बीपी राजमार्गे ह्यस्तन दिवसात् यातायातानां गमनागमनम् निषिद्धमस्ति। रोशी खोला नद्यां जलप्रवाहस्य वर्धनानन्तरं यात्रिणां यातायात साधनानां च सुरक्षां विचार्य रोशीखण्डे सञ्चाल्यमानानि सम्पूर्णानि यातायात साधनानि पिहितानि सन्तीति काभ्रे जनपद प्रहरी कार्यालयस्य प्रहरी नायबोपरीक्षकः रविन विष्ट अज्ञापयत्।